Sit upright in a comfortable position with your spine straight. Let us begin by chanting the Gayatri Mantra. Om Bhurbhuvah Svah Tat Savitur Varenyam Bhargo Devasya Dhimahi Dhiyo Yo Nah Prachodayat. Take water in your right palm. We will sip water three times after each repetition of this mantra. Om Shanno Devirabhishtaya Apo Bhavantu Pitaye Shanyorabhishravantuna. Take water again in your right palm. Om Shanno Devirabhishtaya Apo Bhavantu Pitaye Shanyorabhishravantunah. Once more. Om Shanno Devirabhishtaya Apo Bhavantu Pitaye Shanyorabhishravantunah. Now take water in your left palm and with your middle and ring finger of the right hand, touch it in the water and then touch the different parts of the body. Om Vak Vak, lips. Om Pranah Pranah, nostrils. Om Chakshuh Chakshuh, eyes. Om Shrotram Shrotram, ears. Om Nabhi, navel area. Om Hridayam, heart center. Om Kantaha, throat. Om Shiraha, forehead. Om Bahobhyam Yashobalam, shoulders. Om Kartal Karaprishtaya, palms both sides. Om Bhupunatu Shirasi, forehead. Om Bhuvapunatu Netrayo, eyes. Om Svapunatu Kante, throat. Om Mahapunatu Hridaye, heart area. Om Janapunatu Nabhyam, navel area. Om Tapapunatu Padayo, the thighs, feet. Om Satyam Punatu Punashirasi, top of the head. Om Kam Brahma Punatu Sarvatra, sprinkle water all over. Now we will incorporate pranayama into the chanting of the next mantra. With one full breath, breathe in deeply, and in that one breath, with that one breath, chant the mantra. Om Bhu, Om Bhuvah, Om Swaha, Om Maha, Om Janaha, Om Tapaha, Om Satyam. Deep breath again. Om Bhu, Om Bhuvah, Om Swaha, Om Maha, Om Janaha, Om Tapaha, Om Satyam. Once more, deep breath in. Om Bhu, Om Bhuvah, Om Swaha, Om Maha, Om Janaha, Om Tapaha, Om Satyam. Om Ritancha Satyancha Vidhata Paso Dhyaya Jayata ततो रात्री जायत तत समुद्रो अर्णवः ॐ समुद्रार्णवादधि संवत्सरो अजायत अहो रात्राणि विदिदत् विश्वस्य मिषितो वसि ॐ सूर्यचन्द्रमसौ धाता यथा पूर्वमकल्पयत् दिवं च पृथिवीं चान्तरिक्षम् अतो स्व ॐ प्राची दिग् अग्निरधिपति रक्षितो रक्षितादित्य इषव तेभ्यो नमो दिपतिभ्यो नमो रक्षितृभ्यो नम इषोभ्यो नम एभ्यो अस्तु यो अस्मान् द्वेष्टियं वयं द्विष्मस्तं वोजं वेदन्मः ॐ दक्षिणादिग् इन्द्रोऽधिपतितिरश्चिराजि रक्षिता पितरिषवः तेभ्यो नमो दिपतिभ्यो नमो रक्षितृभ्यो नम इषोभ्यो नम एभ्यो अस्तु यो अस्मान् द्वेष्टियं वयं द्विष्मस्तं वोजं वेदन्मः ॐ प्रतीचिदिग्वरुणोऽधिपतिप्रिधाकु रक्षिता अनमिषवः तेभ्यो नमो दिपतिभ्यो नमो रक्षितृभ्यो नम इषोभ्यो नम एभ्यो अस्तु यो अस्मान् द्वेष्टियं वयं द्विष्मस्तं वोजं वेदन्मः ॐमुदीचिदिग्सोमोऽधिपति स्वजो रक्षिता शनिरिषवः तेभ्यो नमो दिपतिभ्यो नमो रक्षितृभ्यो नम इषोभ्यो नम एभ्यो अस्तु यो अस्मान् द्वेष्टियं वयं द्विष्मस्तं वोचं वेदन्मः ॐ ध्रुवादिग्विष्णुरधिपति कल्माश्ग्रीवो रक्षिता विरुदिषवः तेभ्यो नमो दिपतिभ्यो नमो रक्षितृभ्यो नम इषोभ्यो नम एभ्यो अस्तु यो अस्मान् द्वेष्टियं वयं द्विष्मस्तं वोजं वेदन्मः ॐमुर्ड्वादिग्बृहस्पतिरधिपतिशवित्रो रक्षिता वर्षमिषवः तेभ्यो नमो दिपतिभ्यो नमो रक्षितृभ्यो नम इषोभ्यो नम एभ्यो अस्तु यो अस्मान् द्वेष्टियं वयं द्विष्मस्तं वोजं वेदन्मः ॐमुद्वयं तं सस्परि स्वापश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्मज्योतिरुत्तमम् ॐमुदुत्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् ॐ चित्रं देवानामुदगारनीकं चक्षुर्मित्रस्य वरुणस्य आग्नि आप्राध्या वा पृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तश्च सश्च स्वाहा ॐ तक्षशिर्देवहितं पुरस्ताच्छुक्रमुच्चरत् पशेम शरदाशतं जीवेम शरदाशतं श्रृणुयाम शरदाशतं प्राप्रवाम शरदाशतम् अधीनास्याम शरदाशतं भूयश्च शरदाशतात् ॐ भूर्भुवः स्व तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् ॐ भूर्भुवः स्व तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। हे ईश्वर दयानिधे, भवत्कृपया अनेन जपोपासनादिकर्मण धर्मार्थकाममोक्षानां सद्यसिद्धिर्भवेन्। ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयष्कराय च नमः शिवाय च शिवतराय च। ॐ शान्ति शान्ति शान्ति। ॐ
वी हैव कम टू द एंड ऑफ द वैदिक संध्या।